हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन्नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजिनीवती धेनाम वित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवा शरव्यायातवतया नो रुद्रमृडया याते रुद्र शिवा तनोरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशी यामिषुम् गिरिशम् दहस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् गुरुमाहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिसाच्छावदामसि यता नः सर्वमिज्जगत यक्ष्वगुम् सुमना असत् अध्यवोचददि वक्ता प्रथमो दैव्योऽभिषक् अहेकश्च सर्वा जम्बयन् सर्वा स यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चेमागुम् रुद्र अभितो दिक्षश्रुता सहस्रशो वैशागुम् हेर इमहे असव्यो वसर्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि स दृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अतो ये अस्य सत्त्वानोऽहम् तेभ्यो करं नमः प्रमुञ्च धन्वनस्त्वमुपयोरात्नियोर्ज्याम् याश्च ते हस्त इषव पराता भगवो वप अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु ते निशीर्य शल्यानामुका शिवो नः सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येशव आबुरस्य निषङ्गतिः याते हेतिर्वीडुष्टवास्ते बभूवते धनुः तयास्मान्विश्वतस्त्वम यक्ष्मया परिभुज नमस्ते अस्वायुधाय नाददाय दृष्टवे उभाव्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्मृणक्तु विश्वतः अतो य इषुदिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकायत्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युम् जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यभावे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनां पतये नमो नमः सस्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो बभ्लुषाय विव्याधिने नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्ये जगताम् पतये नमो नमो रुद्राय तथा विने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहितायस्त पतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषाय कृन्दयते पत्तीनाम् पतये नमो नमः कृष्णवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुबाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते सायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः श्रिकाविभ्यो जिगागुं सद्भ्यो मुष्णताम् पतये नमो नमो सिमद्भ्यो नक्तम् चरद्य प्रकृन्दानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषु मद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्यश्चयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नम तिष्ठद्भ्यो दावभ्यश्च वो नमो नमः सवाभ्यः सवापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यस्तेनारिभ्यश्च वो नमो नमः क्षत्र ಶತ್ರುಭ್ಯಃ ಸಂಗ್ರಹೇತೃಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ರಕ್ಷಭ್ಯೋರಥಕಾರೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಕುಲಾಲೇಭ್ಯಃ ಕರ್ಮಾರೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಪುಂಜಿಷ್ಟೇಭ್ಯೋ ನಿಷಾದೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಇಷುಕೃದ್ಭ್ಯೋ ಧನ್ವಕೃದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಮೃಗಯೋಭ್ಯಶ್ವರೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಸ್ವಭ್ಯಶ್ವಪತೇಭ್ಯಶ್ಚ ವೋ ನಮಃ ನಮೋ ಭವಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ಶರ್ವಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮೋ ನೀಲಗ್ರೀವಾಯ ಚ ಶಿತಿಕಂಠಾಯ ಚ ನಮಃ ಕಪರ್ದಿರೇ ಚ ವ್ಯುಕ್ತಕೇಶಾಯ ಚ ನಮಃ ಸಹಸ್ರಾಕ್ಷಾಯ ಚ ಶತಧನ್ವನೇ ಚ ನಮೋ ಗಿರಿಶಾಯ ಚ ಶಿಬಿವಿಷ್ಟಾಯ ಚ ನಮೋ ಮೀಡುಷ್ಟವಾಯ ಚೇಶುಭದೇ ಚ ನಮೋ ಹ್ರಸ್ವಾಯ ಚ ವಾಮನಾಯ ಚ ನಮೋ ಬೃಹತೇ ಚ ವರ್ಷೇಯಸೇ ಚ ನಮೋ ವೃದ್ಧಾಯ ಚ ಸಂವೃದ್ಧನೇ ಚ ನಮೋ ಅಗ್ರಿಯಾಯ ಚ ಪ್ರಥಮಾಯ ಚ ನಮಃ ಆಶವೇ ಚ ಚಿರಾಯ ಚ ನಮಃ ಶೀಘ್ರಿಯಾಯ ಚ ಶೀವ್ಯಾಯ ಚ ನಮಃ ಊರ್ವ್ಯಾಯ ಚ ವಸ್ವನ್ಯಾಯ ಚ ನಮಃ ಶ್ರೋತಸ್ಯಾಯ ಚ ದ್ವೀಪ್ಯಾಯ ಚ ನಮೋ ಜ್ಯೇಷ್ಠಾಯ ಚ ಕನಿಷ್ಠಾಯ ಚ ನಮಃ ಪೂರ್ವಜಾಯ ಚ ಪರಜಾಯ ಚ ನಮೋ ಮಧ್ಯಮಾಯ ಚ ಪಗಲ್ಪಾಯ ಚ ನಮೋ ಜಗನ್ಯಾಯ ಚ ಬುದ್ಧಿಯಾಯ ಚ ನಮಃ ಸೋಭ್ಯಾಯ ಚ ಪ್ರತಿಸರ್ಯಾಯ ಚ ನಮೋ ಯಾಮ್ಯಾಯ ಚ ಕ್ಷೇಮ್ಯಾಯ ಚ ನಮಃ ಉರ್ವರ್ಯಾಯ ಚ ಖಲ್ಯಾಯ ಚ ನಮಃ ಶ್ಲೋಕ್ಯಾಯ ಚ ವಸಾನ್ಯಾಯ ಚ ನಮೋ ವನ್ಯಾಯ ಚ ಕಕ್ಷಾಯ ಚ ನಮಃ ಶ್ರವಾಯ ಚ ಪ್ರತಿಶ್ರವಾಯ ಚ ನಮಃ ಆಶುಷೇನಾಯ ಚ ಶುರತಾಯ ಚ ನಮಃ ಶೂರಾಯ ಚ ವವಿಂದತೇ ಚ ನಮೋ ವರ್ಮಿಣೇ ಚ ವರೋತಿನೇ ಚ ನಮೋ ಬಿಲ್ಮಿನೇ ಚ ಕವಚಿನೇ ಚ ನಮಃ ಶ್ರುತಾಯ ಚ ಶ್ರುತಸೇನಾಯ ಚ ನಮೋ ದುಂದುಭ್ಯಾಯ ಚ ಅನನ್ಯಾಯ ಚ ನಮೋ ದೃಷ್ಟವೇ ಚ ಪ್ರಮಶಾಯ ಚ ನಮೋ ದೂತಾಯ ಚ ಪ್ರಹಿತಾಯ ಚ ನಮೋ ನಿಷಂಗಿಣೇ ಚೇಷುಧಿಮತೇ ಚ ನಮಃ ತೀಕ್ಷ್ಣೇಶವೇ ಚಾಯುಧಿನೇ ಚ ನಮಃ ಸ್ವಾಯುಧಾಯ ಚ ಸುಧನ್ವನೇ ಚ ನಮಃ ಶ್ರುತ್ಯಾಯ ಚ ಪತ್ಯಾಯ ಚ ನಮಃ ಕಾಟ್ಯಾಯ ಚ ನೀಪ್ಯಾಯ ಚ ನಮಃ ಸೂದ್ಯಾಯ ಚ ಸರಸ್ಯಾಯ ಚ ನಮೋ ನಾಗ್ಯಾಯ ಚ ವೈಷಂತಾಯ ಚ ನಮಃ ಕೋಪ್ಯಾಯ ಚ ವಟ್ಯಾಯ ಚ ನಮೋ ವರ್ಷ್ಯಾಯ ಚ ವರ್ಷ್ಯಾಯ ಚ ನಮೋ ಮೇಘ್ಯಾಯ ಚ ವಿದ್ಯುತ್ಯಾಯ ಚ ನಮಃ ಈದ್ರಿಯಾಯ ಚ ತಪ್ಯಾಯ ಚ ನಮೋ ವಾತ್ಯಾಯ ಚ ರೇಷ್ಮಿಯಾಯ ಚ ನಮೋ ವಾಸ್ತವ್ಯಾಯ ಚ ವಾಸ್ತುಪಾಯ ಚ ಓಂ ಹರ 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 ಓಂ ನಮಃ ಸೋಮಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ತಾಮ್ರಾಯ ಚ ಋಣಾಯ ಚ ನಮಃ ಶಂಗಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮಃ ಉಗ್ರಾಯ ಚ ಭೀಮಾಯ ಚ ನಮೋ ಅಗ್ರೇ ವಧಾಯ ಚ ದೂರೇ ವಧಾಯ ಚ ನಮೋ ಹಂತ್ರೇ ಚ ಹನೀಯಸೇ ಚ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯೋ ನಮಸ್ತಾರಾಯ ನಮಃ ಶಂಭವೇ ಚ ಮಯೋಭವೇ ಚ ನಮಃ ಶಂಕರಾಯ ಚ ಮಯಸ್ಕರಾಯ ಚ ನಮಃ ಶಿವಾಯ ಚ ಶಿವತರಾಯ ಚ ನಮಃ ತೀರ್ಥ್ಯಾಯ ಚ ಕುಲ್ಯಾಯ ಚ ನಮಃ ಪಾರ್ಯಾಯ ಚ ಭಾರ್ಯಾಯ ಚ ನಮಃ प्रतरणाय चोत्तरणाय च नमः आधार्याय च लाद्याय च नमः शश्प्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च नम इरिन्द्याय च प्रपत्याय च नमः केगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्टाय च नमो हृदय्याय च निवेश्याय च नमः पागुं सव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्याय च सौर्याय च नमः पर्ण्याय च पर्णशद्याय च नमोपगुरमाणाय च विद्धते च नमः आख्यदते च प्रख्यदते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रावे अन्धसस्वते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मा भेन्मा रोमो येषाम् किञ्च नाम मत या ते रुद्र शिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजेतया नो मृणजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रमरामहेवतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृति क्षयद्वीराय नमसा विदेवते यच्चम् जयोश्च मनुरायजे पिता तदश्य मतवरुद्र प्रणीतौ मानो मान्त्रमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानत्तनुवो रुद्ररीरिषः मानस्तोकेतर ये मान आयुषिवानो गोषुवानो अश्वेषुरीरिषः वीरान्मानो रुद्रभावितो वदे अविष्मन्तो नमसा विदेवते आराते गोघ्र उत पौरुषग्ने क्षयद्वीराय सुम् नमस्वेते अस्तु रक्षा च नो अधि च देव ब्रूयता च नश्शर्वयच्च द्विबर्हाः सुहिश्रुतम् गत्त सदयुवानम् मृगन्न भीममुपहत्वमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेना परिणो रुद्रस्य हेतिर्विणक्तु परित्वेषस्य दुर्मतिरगायोः अवस्तिरामघवद्भ्यस्तनुष्वमीरुस्तोकायतनयाय मृडया मीरुष्टमशिवतमशिवो न सुमनाभव परमे वृक्ष आयुधन्निदाय कृत्तिम् वसा न आचर पिनाकम् बिभ्रदागहे विकिरिल विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयो न्यमस्वन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृते sahasrani sahasrashoye rudra adihomya teshagum sahasrayojane vadhanvani tanmase asmin mahatyarnave intarikshe bhava ade nilagreva shitikantha sharva adahakshava chara nilagreva shitikantha devagum rudra upashrita ye vrikshesu sasmijara nilagreva vilohita ye bhuta namadipatayo vishikasakka pardinaha ye anne shuvivedyante patre shuvipato janana ye patam patilakshaya aila vridaya vyudaha ye teertane pracharante srikavantone shanginaha ya etavantascha bhuyagumsascha disho rudravitastile teshagum sahasrayo jane vadhanvani tanmase namo rudrebhyo ye prithivyam ye antarikshe ye diviye shamannam vato varshamisha vastebhyo dasha prachir dasha dakshira dasha pratechir dasho dechir dasho dvastebhyo namaste no mridayantu teyam dvishvo yaschano dveschitam vojam vedadami trimbakayajamahe sugandhim pushtivardhanam urvarukamiva vandanan mrityormukshiyamamratat yo rudro agravyo apsuya oshadeshu yo rudro vishva bhuvana vivesha tasmai rudraya namo astu yete sahasramayutam pasha mrityo matyayantave tan yajnasya vayaya sarvanavayajamahe mrityave swaha mrityave swaha prananam grantirasirudro ma vishantakaha tena nena abhyayasva namo rudraya vishnave mrityave pahi tamastu yasva shasvadan vayo vishvasya kshayate ve sajasya yakshva vahesau manasaya rudram namo bhirdevam asuram duvasya ayam me hasto bhagavan ayam me bhagavattarah ayam me vishvabhe sajoyagum shiva vivarshanah om shanti 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 om agna vishto sajosha seva vardhanto vangirah jyumnairvaje viragatam vajascha me prasavascha me prayatischa me prasitischa me dhitischa me kratuscha me swarascha me shlokascha me shravascha me shrutischa me jyotischa me suvascha me pranascha me panascha me vyanascha me suscha me chitta tam cha maatitam cha me vak cha me manascha me chakshuscha me shrotram cha me dakshascha me balam cha ma ojascha me sahascha ma ayuscha me jara cha ma atva cha me tanoscha me sharma cha me varma cha me gani cha me sthani cha me parogumse cha me shari ranichame जैष्ठ्यम् च महाधिपत्यम् च मे मन्योश्च मे भामश्च मेमश्च मेऽम्बश्च मे
जेमा च मे
महिमा च मे वरिमा च मे प्रतिमा च मे वश्वा च मे द्रागुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वसश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमानम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपतम् च मरुद्धम् च मरुद्धिश्च मे क्रुक्तम् च मे क्रुक्तिश्च मे मतिश्च मे सुमतिश्च मे शञ्च मे मयश्च मे प्रियम् च मे नो कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वत्स्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संवेच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे स्थिरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सुषा च मे सुदिनम् च मे ऊर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सक्तिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे चैत्रम् च मौतिथ्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभु च मे प्रभु च मे भौ च मे भूय श्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कुयवाश्च मेनम् च मे सुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे कल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे निवाराश्च मे अश्वा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे सीसम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च महापश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यम् च मे कृष्टपच्यम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्ति तिश्च मे अर्थश्च महेमश्च महितिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पोषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे भाता च महेन्द्रश्च मे विष्णुश्च महेन्द्रश्च मे श्विणौ च महेन्द्रश्च मे मरुतश्च महेन्द्रश्च मे विश्वे च मे देवायेन्द्रश्च मे पृथिवी च महेन्द्रश्च मेऽन्तरिक्षम् च महेन्द्रश्च मे द्यौश्च महेन्द्रश्च मे दिशश्च महेन्द्रश्च मे
मूर्धा च महेन्द्रश्च
मे प्रजापतिश्च महेन्द्रश्च मे अगुंसुश्च मे रश्मिश्च मे जाभ्यश्च मे द्विपतिश्च मागुंसुश्च मे
दर्यामश्च
म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्त्रे च म अग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मनुतुग्रहाश्च मेति ग्राह्याश्च मैन्द्राग्रश्च मे वैश्वदेवश्च मे मनुत्वदीयाश्च मे माहेन्द्रश्च मादित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पार्थिवतश्च मे आर्योजनश्च मे इत्मश्च मे बर्हिश्च मे वेदिश्च मे दृष्टयाश्च मे सुजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे दिशवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पोतवृक्ष म आरवणीयश्च म आग्नेर्दं च मे वृत्तानम् च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे व्रतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मे कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरेरङ्गुलयो दिशश्च मे यज्ञेरकल्पम् ताम्रश्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहत्सदन्तरे च मे यज्ञेन कल्पेता गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्च मे दित्योहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्योहे च मे पष्टवाच्च मे पष्टौहे च म उक्षा च मे वशा च मरुषभश्च मे व्येहश्च मे नद्वाञ्च मे धेनुश्च मायु यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता गुश्रोत्रं यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पता यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्त సప్తదశ చ మే నవదశ చ ఏక విగుంసదిశ్చ మే త్రయో విగుంసదిశ్చ మే పంచ విగుంసదిశ్చ మే సప్త విగుంసదిశ్చ మే నవ విగుంసదిశ్చ ఏక త్రిగుంసచ్చ మే త్రయస్త్రిగుంసచ్చ మే చతస్రశ్చ మేష్టౌ చ మే ద్వాదశ చ మే షోడశ చ మే విగుంసదిశ్చ మే చతుర్విగుంసదిశ్చ మేష్టావిగుంసదిశ్చ మే ద్వాత్రిగుంసచ్చ మే షత్రిగుంసచ్చ మే చత్వారిగుంసచ్చ మే చతుశ్చత్వారిగుంసచ్చ మే శ్లాచత్వారిగుంసచ్చ మే వాజశ్చ ప్రసవశ్చ విజశ్చ క్రతుశ్చ సువశ్చ మూర్ధా చ వ్యస్తయశ్చాంద్యాయనశ్చాంద్యశ్చ భువనశ్చ భువనశ్చాధిపతిశ్చ ఇడా దేవోర్మనుర్యజ్ఞనే బృహస్పతిరుక్తా మదాని శగుంసి షద్విశ్వే దేవాసోర్తవాచ ప్రతిమాతర్మాగుంసేర్మధుమనిష్యే మధుజనిష్యే మధువక్ష్యామి మధువదిష్యామి మధుమతే దేవేభ్యో వాచ మధ్యాసగుం శుశ్రూషేణ్యా మనుష్యేభ్యస్తం మా దేవా అవంతు శోభాయ పితరోను మదంతు శాంతి 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 ఓం అత్రిణాత్వా కృమే హన్మే కణ్వేన జమదగ్నినా విశ్వావసో బ్రహ్మణా హతః క్రిమేణాగుం రాజా అప్యేషాగస్తపతిర్హతః అథో మాతాథో పితా అథో స్థూలా అథో క్షుద్రా అథో కృష్ణా అథో శ్వేతా అథో ఆశాతికాహతా శ్వేతాభిః సహ సర్వే హతాః ఆహరావద్యా శ్రుతస్యః విశో యతా తత్ సత్యం యదమయమస్య జంభయోః ఆదధామి తథా హి తత్ ఖన్ ఫన్ నసే ఓం శాంతి 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 ఓం భద్రం కర్ణేభిః శృణుయామ దేవాః భద్రం పశ్యేమాక్షభిర్యజత్రాః స్థిరైరంగైః సుష్ఠువాగుంసస్తనూభిః వశేమ దేవహితయ్యదాయుః స్వస్తిన ఇంద్రో వృద్ధశ్రవాః స్వస్తిన పూషా విశ్వవేదాః స్వస్తినస్తార్షో అరిష్టనేమిః స్వస్తినో బృహస్పతిర్దధాతు ఓం శాంతి 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 ఓం నమస్తే గణపతయే త్వమేవ ప్రత్యక్షం తత్వమసి త్వమేవ కేవలం కర్తాసి త్వమేవ కేవలం ధర్తాసి త్వమేవ కేవలం హర్తాసి త్వమేవ సర్వం ఖల్విదం బ్రహ్మాసి త్వం సాక్షాదాత్మాసి నిత్యం హృతం వచ్మి సత్యం వచ్మి అవత్వం మా అవవక్తారం అవశ్రోతారం అవదాతారం అవధాతారం అవానోచానమవశ శిష్యం అవపశ్చాత్తాత్ అవపురస్తాత్ అవోత్తరాత్ అవదక్షిణాత్ అవచోర్ధ్వాత్ అవాధరాత్ సర్వతో మాం పాహి పాహి సమంతాత్ త్వం వాంగ్మయస్త్వం చిన్మయః త్వమానందమయస్త్వం బ్రహ్మమయః త్వం సచ్చిదానందాద్వితీయోసి త్వం ప్రత్యక్షం బ్రహ్మాసి త్వం జ్ఞానమయో విజ్ఞానమయోసి సర్వం జగదిదం త్వత్తో జాయతే సర్వం జగదిదం త్వత్తస్తిష్ఠతే సర్వం జగదిదం త్వయి లయమేష్యతి సర్వం జగదిదం త్వయి ప్రత్యేతి త్వం భూమిరాపో నలో నిలో నభః త్వం చత్వారి వాక్పదాని త్వం గుణత్రయాతీతః త్వం అవస్థాత్రయాతీతః త్వం దేహత్రయాతీతః త్వం కాలత్రయాతీతః త్వం మూలాధారస్తితోసి నిత్యం త్వం శక్తిత్రయాత్మకః త్వాం యోగినో ధ్యాయంతి నిత్యం త్వం బ్రహ్మా త్వం విష్ణుస్త్వం రుద్రస్త్వమింద్రస్త్వమగ్నిస్త్వం వాయుస్త్వం సూర్యస్త్వం చంద్రవాస్త్వం బ్రహ్మభూర్భువస్వరోం గణాదిం పూర్వముచ్చార్యవర్ణాదీన్ సదనంతరం అనుస్వార పరతరః అర్ధేందులసితం తారేణరుద్ధం ఏతత్తవ మనుస్వరూపం గకార పూర్వరూపం అకారో మధ్యమరూపం అనుస్వారశ్చాంత్యరూపం బిందురుత్తరరూపం నాదసంధానం తగుంహితా సంధిః సైషా గణేశ విద్యా గణక ఋషిః నిసృద్గాయత్రీ ఛందః గణపతిర్దేవతా ఓం గం గణపతయే నమః ఏకదంతాయ విద్మహే వక్రతుండాయ ధీమహి తన్నో దంతి ప్రచోదయాత్ ఏకదంతం చతుర్హస్తం పాశమంకుశధారిణం దదం చ వరదం హస్తేర్భిప్రాణం మూషకధ్వజం రక్తం లంబోదరం శూర్పకర్ణకం రక్తవాససం రక్తగంధానులిప్తాంగం రక్తపుష్పై సుభూషితం భక్తానుకంపినం దేవం జగత్కారణమచ్యుతం ఆవిర్భూతం చ శుష్ట్యాదో ప్రకృతే పురుషాత్పరం ఏవం ధ్యాయతి యో నిత్యం స యోగీ యోగినాం వరః నమో వ్రాతపతయే నమో గణపతయే నమ ప్రమథపతయే నమస్తే అసులంబోదరాయేకదంతాయ విఘ్ననాశినే శివసుతాయ వరదమూర్తయే నమః భద్రం కర్ణేభిః శృణుయామ దేవాః భద్రం పశ్యేమాక్షభిర్యజత్రా స్థిరైరంగై సుష్టువాగుంసస్తనూభిః విషేమ దేవహితయ్యదాయుః స్వస్తి న ఇంద్రో వృద్ధశ్రవాః స్వస్తి న పూషా విశ్వవేదాః స్వస్తి నస్తాక్షో అరిష్టనేమిః స్వస్తి నో బృహస్పతిర్దధాతు ఓం శాంతి శాంతి
शान्ति
स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति।